अथ लघुन्यासः प्रजनने ब्रह्मा तिष्ठतु पादयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्वोरिन्द्रस्तिष्ठतु जठरे अग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोर्वायुस्तिष्ठतु नयनयो सूर्या चन्द्रमसौ तिष्ठेता कर्णयोरश्विनौ देवौ तिष्ठेता ललाटे रुद्रास्तिष्ठन्तु मूर्ध्न्यादित्यास्तिष्ठन्तु शिरसि महादेवस्तिष्ठतु शिखायाञ्चामुण्डा तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरतश्रूली तिष्ठतु पार्श्वयो शिवाशङ्करौ तिष्ठेता सर्वतो वायुस्तिष्ठतु ततो बहिः सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु सर्वेष्वङ्गेषु सर्वा देवता यथा यथा स्थानानि तिष्ठन्तु मागं रक्षन्तु यजमानगं रक्षन्तु ॐ अग्निर्मे वाचिश्रितः वाग्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि सूर्यो मे चक्षुश्रितः चक्षुर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनोहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि दिशो मे श्रोत्रे श्रिताः श्रोत्रगहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि आपो मे रेतसि श्रिताः रेतो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पृथिवी मे शरीरे श्रिता शरीरगहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ओषधिवनस्पतयो मे लोमसुश्रिताः लोमानिहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि इन्द्रो मे बले श्रितः बलगहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्निश्रितः मूर्धाहृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ईशानो मे मन्योश्रितः मन्यर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि आत्मानो आत्मनि श्रितः आत्मा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनः प्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः एवं सर्वशरीरं स्पृशेत् ध्यायेत शुद्ध स्फटिक संकाशं त्रिनेत्रं पञ्चवक्त्रकं गंगाधरं दशभुजं सर्वाभरणभूषितं नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् व्याघ्रचरमोत्तरीयं च वरेण्यमभयप्रदम् कमण्डलवक्षसूत्राभ्याम् मन्वितं शूलपाणिनम् ज्वलन्तं पिङ्गलजटाशिखामुद्योतकारिणम् अमृतेनाप्लुतं वृष्टमुमादेहारथधारिणम् दिव्यसिंहासनासीनं दिव्यभोगसमन्वितम् दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् सर्वव्यापिनमीशानं भद्रं वै विश्वरूपिणम् एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत आराधितो मनुष्यैस्त्वगसिद्धैर्देवासुरादिभिः आराधयामि भक्त्या त्वां मां गृहाण महेश्वर पात्वा वहं दुहर यस्त चेतन श्वेतैरैः वाताजवैर्बलवद्भिर्मनोजवैरायाहि शीघ्रम् मम हव्याय सर्वो स्वामिन् सर्वजगन्नाथ यावत् पूजावसानकम् तावत्त्वं प्रीतिभावेन लिङ्गेऽस्मिन् सन्निधो भव शान्तिदो भव सुप्रसन्नो भव वरदो भव अनेन लघुन्यासेन श्रीपरमेश्वरः प्रीयताम् इति लघुन्यासः समाप्तः।